लीलागलल्लोला कालव्याल विलासिने गणेशाय नमो नीलकमलामलकान्तये।
उत्तमम्। कृतञ्जलि प्रयत्नं करोतु। कृतञ्जलि लीलागलल्लोल कृतञ्जलि न श्रूयते वा? किम् अभवत्? कृतञ्जलि यु आर् नाट् हियरिङ्ग् मी कृतञ्जलि, यु आर् इन् द म्यूट् मोड् कृतञ्जलि। अस्तु अग्रे सरेम कृतञ्जलि, टेल् मी वेन् यू आर् एबल् टु टाक्। ओके, तर्हि गतवर्गे वयं किञ्चित् पुनस्मरणं कृत्वा अग्रे सरेम। अलिख्य यु आर् जस्ट् मिस् अ लिटिल् लास्ट् पार्ट् रैट्, विल् डू लिटिल् पुनस्मरणं अग्रे सरेम। तर्हि किम् इति प्रातिपदिकं, खलु किम् इति प्रातिपदिकं, पुल्लिङ्ग प्रथमविभक्ति तथा द्वितीयविभक्ति पठ अलिख्य।
कः कौके
प्रथमा, सेट् लैक् दट्, कः कौके प्रथमा,
प्रथमा कां कौकान्
द्वितीया,
द्वितीया
प्रथमा,
काके काः प्रथमा, कां के काः द्वितीया,
नपुंसकलिङ्गे
किं के कानि प्रथमा, किं के कानि द्वितीया।
उत्तमम्। इदानीं चित्रं पश्येम। बालः किं करोति, वदति, किं वदति, इयं नदी इति वदति, खलु? तर्हि बालः कां दर्शयति इति प्रश्नः। उत्तरम् वद अलख्य।
बालः कां
दर्शयति। उत्तरं बालः
बालः नदीं दर्शयति।
उत्तमम्। तर्हि कां कथम् आगतं पदं, नदी स्त्रीलिङ्गपदं खलु, तर्हि कां किमर्थम् आगतं? द्वितीया विभक्ति एकवचनं, नदी एकवचने अस्ति, अतः द्वितीया विभक्ति एकवचने कां नदीम्। अग्रे अग्रिमचित्रं किञ्चित् वदतु। सर्पः बालं दशति, किं करोति सर्पः? दर्शति न दशति, हीस् बैटिङ्ग् खलु, दशति। तर्हि यदि सर्पः बालं दशति तर्हि प्रश्नः किं भवेत्? वाट् केन् बि द क्वशन्? सर्पः
सर्पः किं
किं न, बालः अस्ति खलु, तर्हि बालं दशति, अतः सर्पः, पश्यतु अत्र पुल्लिङ्गः, द्वितीय एकवचनं किं भवेत्? कं, खलु? आम्। तर्हि वदतु सर्पः
सर्पः
कं दशति,
कं दशति।
उत्तरं सर्पः
सर्पः
बालं
सर्पः बालं किं
दशति,
कं दशति।
बालं दशति। इमेजिन् न, इदानीं चिन्तय, एकः एव सर्पः, इट्स् बैटिङ्ग् टु चिल्ड्रन्, इमेजिन्। तदा किं भवेत्? सर्पः
सर्पः,
यु वाण्ट् मी टु शो द विभक्ति टेबल्? तर्हि रामः रामौ रामः रामौ रामाः प्रथमा, खलु? गायतु। श्रूयते
रामः रामौ रामः
प्रथमः तर्हि द्वितीयमपि भवति किं भवेत् रामं रामौ रामान् द्वितीया खलु एकवारं गायतु रामं रामौ रामान् द्वितीया खलु ऐ विल् शो द टेबल् जस्ट् अ मिनिट् इट्स् ओपनिङ्ग् सि अकारान्तपुल्लिङ्ग रामशब्दं पश्यामः खलु बालः हा तर्हि रामः रामौ रामाः प्रथमा गायन्तु सर्वे गायन्तु रामं रामौ रामान् द्वितीया हा तर्हि इफ् ही इस् बैटिङ्ग् वन् चैल्ड् तर्हि बाल बालं खलु यथा राम रामं तथैव बाल किं भवेत् बालम् इफ् ही इस् बैटिङ्ग् टु चिल्ड्रन् तदा किं भवेत् सर्पः बालौ केन् सि दिस् किं सि दिस् या बाल खलु द्वितीया विभक्ति द्विवचने किम् अस्ति बालौ सर्पः बालौ दशति इफ् ही इस् बैटिङ्ग् मोर् देन् टु चिल्ड्रन् त्री आर् मोर् तदा किं भवेत् उत्तरं बालः बालान् दशति खलु सर्पः बालान् दशति खलु ऐ हव् यु गोट् द आन्सर् सरि हि इस् बैटिङ्ग् वन् चैल्ड् सर्पः बालं दशति टु अल्ले किं वद सर्पः बालौ आं वा एकनिमिषं जस्ट् is it are you clearly hearing me now right now or should I exit and come in
the reason why I couldn't answer that firmly like the past few minutes because your voice was breaking in the middle
okay now idari something asking or should I exit and come out just a minute then problem is with me okay just a minute I'll exit and come out Come again. I'll share the screen again. इदानीम् अलेख्या वक्तुं शक्नोति अलेख्या आम् हा तर्हि सर्पः एकं बालं दशति तदा किं भवेत् सर्पः बालं दशति
सर्पः बालं
कं
दशति
बालं दशति हा No, first give the answer, then we'll see the questions. Sarpaha balam dashati. If he is biting two children, Sarpaha balau.
Sarpaha balau.
Dashati.
Dashati.
If he is biting more than three children, three or more, Sarpaha balan dashati.
Sarpaha balan dashati.
तर्हि एकवचनस्य किं भवेत् प्रश्नः सर्पः कं दशति खलु द्विवचने किं भवेत् प्रश्नः कं कौ कान् खलु द्विवचने किं भवेत् प्रश्नः सर्पः कौ
कान्
तर्हि सर्पः कौ दशति फार् टु चिल्ड्रन् इफ् हीस् बैटिङ्ग् एण्ड् इफ् हीस् बैटिङ्ग् मेनि चिल्ड्रन् देन् सर्पः कान् दशति अवगतम्
दशति
अस्तु अग्रेसरेण एकवारं सर्वे वदन्तु कपिः कपी कपयः
कपिः कपी कपयः
न न लेख्य अत्र कपी दीर्घ अस्ति खलु कपिः कपी कपयः
कपिः कपी कपयः
उत्तमम् सारथिः सारथी सारथयः सारथिः सारथी सारथयः सारथयः नृपतिः नृपती नृपतयः नृपतिः अर्थात् किङ्ग् राजा सारथिः द वन् हूस् रैडिङ्ग् द कार्ट् रैट् यः रथं चालयति सः सारथिः यः रथं चालयति सः सारथिः कपिः मङ्की खलु अग्रे तर्हि वी हेव् डन् दिस् केन् वि गो अहेड् रैट् तर्हि कृताञ्जलि केन् यु जस्ट् लुक् एट् द चित्रम् एण्ड् सी से एनी सेण्टेन्सेस् वाट् कम्स् इन् युर् मैण्ड् वृषभौ देर् आर् टु बुल्स् रैट् कृताञ्जलि
वृषभौ
तृणम्
तृणं
चरतः तर्हि तृणं तृणे तृणानि नपुंसकलिङ्ग तर्हि प्रश्नः किं भवेत् वृषभौ लुक् एट् द नपुंसकलिङ्ग टेबल् सी किं के कानि प्रथमा द्वितीयविभक्ति किमस्ति पुनः किं के कानि सो यु आर् यूसिङ्ग् दिस् द्वितीय एकवचनं रैट् नौ दिस् द्वितीय एकवचनम् इस् किम् अथ वृषभौ किं चरतः आस् द क्वशन् वृषभौ तृणं चरतः अग्रे अरुणा अस्ति प्रश्नं पठति वा पुरुषः कानि चिनोति अरुणा पठतु कानि चिनोति उत्तरं पुरुषः
पुरुषः
पद्मानि
पद्मानि
चिनोति
चिनोति
अग्रे हा अर्णा पठतु क्वशन् त्वं किं खादसि
त्वं किं खादसि
हा सो वाट् इस् द आन्सर् दिस् बाय् विल् गिव् केन् यु टेल् मी अहं किं वद बालः अहम् आम्रफलं केन् यु सी दिस् मेङ्गो यत् आम्रफलम् अहम् आम्रफलम्
आम्रफलं
क्रियापदं किं भवेत् खादामि हलो सम्यक् खलु
मैम मैम
खण्डनं जातं खलु मध्ये एव जस्ट् मिनिट् अरुणा श्रूयते खलु जस्ट् मिनिट् तर्हि अस्य बालस्य उत्तरं पुनः वदतु Arana, what will this boy say? Aham.
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 Hmm? What will he say? Amra? Huh? Arana?
Aham.
Amra palam.
Amra palam.
Hmm? Uttamam, khadami. Huh? अस्तु अत्र अश्वौ रथं वहतः अश्वौ रथं वहतः तर्हि प्रश्नः किं भवेत् अश्वौ तं वहतः रैट् वशुभित क्वशन् रथः पुल्लिङ्गशब्दः अस्ति तर्हि कं वहतः अश्वः रथं वहतः सारथिः रथं नयति सारथिः किं करोति सर्वे वदन्तु सारथिः रथं
रथं नयति
तर्हि सारथिः कं नयति प्रश्नः सारथिः कं नयति
सारथिः कं नयति
उत्तरं किं सारथिः
सारथिः
रथं नयति आम् अनदर् क्वशन् सारथिः किं करोति इति प्रश्नः उत्तरं किं भवेत् कोऽपि वदेत् एनिबडि केन् से किं करोति वाट् शुड् बि दि आन्सर् सारथिः किं करोति आम् सारथिः रथं नयति केन् सि द आन्सर् फोर् द लास्ट् क्वशन् इस् सारथिः रथं नयति क्रियापदम् इस् करोति रैट् सो दे फोर् दे आर् यूसिङ्ग् किम् वाट् इस् किम् हियर् किम् इस् अ नपुंसकलिङ्ग द्वितीयाविभक्ति नपुंसकलिङ्ग द्वितीयाविभक्ति एकवचनं किं करोति ओके सो दिस् हियर् दो वि आर् नाट् सेङ्ग् वेन् यु आर् सेङ्ग् द क्वशन् इस् करोति वाट् इस् हि डूयिङ्ग् देन् वाट् फार् वाट् इ यूसिङ्ग् द नपुंसकलिङ्गरूपं बिकास् वि डोण्ट् नो वाट् इट् इस् रैट् एण्ड् देफोर् वि केन् से सारथिः किं करोति दिस् इस् द क्वशन् आन्सर् इस् द सेम् सारथिः रथं नयति वाट् वास् अनदर् क्वशन् फार् द सेम् आन्सर् सारथिः कं नयति आन्सर् इस् द सेम् सारथिः रथं नयति रैट् हव् यु अण्डर्स्टुण्ड् वेस् आफ़् आस्किङ्ग् द सेम् थिङ्ग् बट् द क्वशन् इस् डिफ़्रेण्ट् तर्हि बालाः अश्वान् आरोहन्ति बालाः अश्वान् आरोहन्ति प्रश्नः अलेख्या अन्यथा कृताञ्जलि करोतु
हलो
वदतु
बालाः
कान् आरोहन्ति
कान् आरोहन्ति
Now, if the question is for Balaha, then what should be the question? Balaha Bahuvachanam. Ke Ashwan Arohanti, right? Kaha kau ke? Sorry?
Ke Ashwan Arohanti.
Uttaram kim bhavet? Uttaram kim bhavet? Balaha.
Ashwan Arohanti.
Now, we can also have a question where you are asking for two different things. We want to know who is climbing what. Correct? तदा किं भवेत् प्रश्नः कान्
किम्
आरोहति उत्तरं किं भवेत् तदा पशुभिः आन्सर् अगेन्
बालाः अश्वान् आरोहन्ति
उत्तमम् अत्र जनः गजं अलेख्या शक्यते ओके क्या पठा जनः गजं
जनः गजम्
आरोहति
आरोहति
प्रश्नः कः कम् आरोहति साधु अस्ति खलु प्रश्नः कः इस् वाट् जनः खलु कम् कम् इति प्रश्नस्य उत्तरं किं गजम्
आम्
we did this, we did this. Okay, a new, something new. Kapih, look at this first chitra. This is one chitram, prathama chitram. Kapih shakham arohati. There's a branch and he's climbing the branch. Vadantu sarve, kapih.
Kapih.
Shakham.
Shakham.
Arohati.
Arohati.
Atra, instead of shakha, if I take lata, can you see the second chitram, dvitiya chitram? There is a monkey climbing a creeper, right? Lata. Tada prashna, vakyam kim bhuve? Kapihi. Shakha, shakham. Lata.
Lata.
Lata. Tari vakyam vadantu? Kapihi latam.
Arohati.
कृतांजलि सम्पूर्ण वाक्यं वदतु कपिः लताम् आरोहति नौ हियर् इन् द थर्ड् चित्रम् अत्र तृतीये चित्रे वाट् शुड् बि द क्वशन् और् वाट् शुड् बि द फस्ट् आन्सर् विल् लास्ट् द क्वशन् लेटर् कपिः कपी कपयः खलु द्विवचने किमस्ति इन् दिस् चित्र हम्नि कपि हम्नि मङ्कीस् अर् देर् टु रैट् तर्हि कपिः एकवचने कपी दीर्घ इकार कपी वदतु वचति वाक्यं ह्य कपी कपी शाखा क्रियापदं द्विवचनं द क्रियापदं शुड् बि द्विवचनं आरोहति
आरोहतः
आम् आरोहतः कपी शाखाम् आरोहतः अवगतम् अलिख्य अर्णा अर्णा इदानीं बहुवचने किं भवेत् प्रश्नः कपिः कपी
बहुवचने
कपयः कपयः कपयः
शाखाम् आरोहन्ति
आरोहन्ति खलु कपयः शाखाम् आरोहन्ति सम्यक् खलु सम्यक् फैन् इदानीम् अलिख्य शाखास्थाने लता स्वीकरोतु एण्ड् टेल् द एकवचनं द्विवचनम् एण्ड् बहुवचनं वाक्यं
लतः
न कपिः
कपिः कपिः शाखाम्
नो शाखास्थाने लता स्वीकरोतु शाखा केन सि दिस् चित्र हियर् सेकेण्ड् वन् लता अस्ति खलु तर्हि लता किं भवेत् लतां कपिः
कपिः लताम् आरोहति
द्विवचने कपी
कपी लताम् लताम् आरोहतः
And imagine it's only one creeper which all of them are climbing. We are not changing the lingam for kapi, the lata. We are imagine there is only one creeper on which both the monkeys are climbing. One creeper on which all the monkeys are climbing. Tari bahu vachane?
Kapayaha lataam arohanti.
Avagatam? इदानीं पुनः किञ्चित् अत्र स्त्रीलिङ्ग आकारान्त स्त्रीलिङ्ग नाम सीता तर्हि सीता सीते सीताः प्रथमा सीतां सीते सीताः द्वितीया तर्हि अत्र लता यदि लतापदं स्वीकुर्मः तर्हि द्वितीयाविभक्ति एकवचनं किं भवेत् सीता विकं सीतां तर्हि लता किं भवेत्
लताम्
इदानीम् अलिख्या उक्तवती खलु वाक्यानि कपिः लताम् आरोहति नौ फोर् द्विवचने वाट् शुड् बि द क्रिया दिस् सपोज् दर् आर् टु क्रीपर्स् आन् विच् टु मङ्कीस् आर् क्लैम्बिङ्ग् इफ् दर् आर् टु क्रीपर्स् आन् विच् टु मङ्कीस् आर् क्लैम्बिङ्ग् एकवचने किमस्ति कपिः लताम् आरोहति एकवचने टु मङ्कीस् क्लैम्बिङ्ग् आन् टु क्रीपर्स् कपी
कपी लते
आरोहतः. उत्तमम्. अनन्तरं मेनि मङ्कीस् क्लैम्बिङ्ग् आन् मेनि क्रीपर्स्. तर्हि लतां, लते, लताः. तर्हि वाक्यं किं भवेत्?
कपयः लताः आरोहन्ति.
अर्णा वदतु, अर्णा वाक्यं वदतु. कपयः लताः आरोहन्ति. अर्णा गतवर्गे न आसीत् खलु तत्र ध्वनिमुद्रण मुद्रणं दृष्टं वा? अर्णा, डिड् यु सी द रेकार्डिङ्ग्?
So
that's what I'm saying. Did you go to the recording so that you can catch up with the Varga? Kritanjali, vadatu. Ek vachne, dvi vachne, bahu vachne vadatu, Kritanjali. Latam, late, lataha. We now know the dvi vachna rupani. Kritanjali.
Kapi.
लता
आरोहति. कपी आरोहतः. कपयः लताः आरोहन्ति.
उत्तमं, साधु साधु. उत्तमं. तर्हि पुनः अग्रे सरेम. एकां कथां शृणुमः. प्लीज् पे अटेन्शन् टु द कथा. श्रूयते वा? अलिक्य, आर् यु एबल् टु हियर् अलिक्य? श्रूयते न? आम्.
एकहस्रगालः वनं गच्छति. एकहस्रगालः वनं गच्छति. पिपासा बुभुक्षा, पिपासया बुभुक्षया वनं गच्छति. सः वनं गच्छति. गच्छति किमपि न लभते. तत्र गच्छति किमपि न लभते. श्रान्तः जायते खिन्नः जायते. परश्रान्तः जायते खिन्नः जायते. द्राक्षा पश्यति द्राक्षालता कः पश्यति द्राक्षाभयम् उपरि उपरि लतासु दृश्यते तत्फलम् उपरि उपरि लतासु दृश्यते तत्फलम् अनुक्षणम् तन्मुखे रसः जायते अनुक्षणम् तन्मुखे रसः जायते
किं च करोति सः किं च करोति किं च करोति सः किं च करोति
एकवारम् उत्पतति द्विवारम् उत्पतति त्रिवारम् उत्पतति पुनः पुनः उत्पतति एकवारम् उत्पतति द्विवारम् उत्पतति त्रिवारम् उत्पतति पुनः पुनः उत्पतति खेदः जायते श्रमः जायते तस्य खेदः जायते श्रमः जायते
किं कथयति सः किं कथयति किं कथयति सः किं कथयति
आम्लं द्राक्षाभयम्
तर्हि कथा मध्ये कानिचन वाक्यानि पश्येम इदानीं दृश्यते कथा श्रुता खलु तर्हि एट् दि एण्ड् वाट् यु डि सी शृगालः द्राक्षाफलं पश्यति शृगालः किं पश्यति
शृगालः
द्राक्षाफलं पतति तर्हि अत्र द्राक्षाफलं का विभक्ति द्वितीयाविभक्ति एकवचनं खलु द्राक्षाफलं पतति इतोपि शृगालः द्राक्षालतां पश्यति लतां पश्यति शृगालः द्राक्षालतां पश्यति तर्हि प्रश्नः किं भवेत् शृगालः वाट् शुड् बि अ क्वशन् शृगालः शुडिड् बि कम् शुडिड् बि किं शुडिड् बि काम् लता वाट् इट् शुड् बि शृगालः सी उत्तरे शृगालः द्राक्षालतां पश्यति खलु तर्हि तदा वाक्यं किं भवेत् शृगालः प्रश्नः किं भवेत् आम् शृगालः कां पश्यति शृगालः उत्तरम्
द्राक्षाफलं
पश्यति न लता अरे द्राक्षालता हि आल्सो फस्ट् सीस् द द्राक्षालता देन् हि सीस् द फ्रूट् रैट् फस्ट् हि सीस् द क्रीपर् रैट् तर्हि शृगालः द्राक्षालतां पश्यति वदतु सर्वे शृगालः सर्वे वदन्तु अर्णा सर्वे वदन्तु शृगालः से शृगालः द्राक्षालतां पश्यति
द्राक्षालतां
पश्यति सो दिस् इस् द आन्सर् वाट् इस् द क्वशन् शृगालः कां पश्यति इति प्रश्नः खलु लता त्रिलिङ्गपदं तर्हि वदन्तु शृगालः कां पश्यति वदन्तु सर्वे शृगालः कां पश्यति इतोपि एकः शृगालः वनं गच्छति वट् इस् वनं वट् इस् द विभक्ति फोर् वनम् वनं वने वनानि प्रथम नपुंसकलिङ्ग अस्ति खलु वनं तर्हि वनं वने वनानि प्रथमा वनं वने वनानि द्वितीया सो वट् इस् द रूपं हियर् शृगालः वनं गच्छति तर्हि द्वितीया विभक्ति एकवचनं नपुंसकलिङ्गे इस् सेम् रैट् प्रथमा इन् द्वितीया इस् सेम् रैट् शृगालः वनं गच्छति सो दिस् इस् द्वितीया एकवचनं वट् विल् डू रैट् नौ शुनकः भषति खलु सम्बडीस् हौस् देर् डाग् इस् बाकिङ्ग् शुनकः किं करोति शुनकः वदन्तु शुनकः भषति भषति तर्हि शुनकः किं करोति ask the question also. Shunakah kim karoti?
Shunakah kim karoti? Shunakah
bhashati?
Bhashati.
Astu. Tari agre. Atra karoti iti kriyapadasya nava rupani pathati va kritanjali? Karoti kurutah kurvanti.
Karoti kurutah kurvanti. Karoshi kurutah kurutha.
Kurutah kurutha.
Karomi kurvah kurmah.
इदानीं वयं किं कुर्मः सि वयं कुर्मः खलु इदानीं वयं सर्वे किं कुर्मः वयं संस्कृतं पठामः खलु से वयं
वयं संस्कृतं पठामः
पठामः वयं कथां शृणुमः वयं किं कुर्मः वि सॉ अ कथा राइट अ स्टोरी ओर अ सॉन्ग वयं कथां
वयं
शृणुमः
शृणुतः
शृणुमः शृणुतः वयं गीतां शृणुमः वदन्तु वयं
गीतं
शृणुमः
वयं गीतं शृणुमः
तर्हि फोर् अहं वाट् शुड् बि द वाक्यम् अहं गीतं शृणोमि
अहं गीतं शृणोमि
इफ् टु आफ् देम् आर् लिस्निङ्ग् आवां गीतं शृणुवः And we all are still listening. Vayam Gitam Shrunumaha.
Vayam Gitam Shrunumaha.
Alikya, asti khalo? Alikya? Alikya nasti va? Kare vadantu. Tritiya vibhakti aravamahe. Idanim? We have finished the panchamah paatha. Let us go to the shashtha paatha. Tari, pratham, prashna arthe, vibhakti rupani pashyama. Pullinge, strilinge, napunsaklinge. Pratipatikam is same. Kim. Pratipatikam samaneva. Kim, kim, kim. Parantu pullinge rupam bhinnam, strilinge bhinnam, napunsaklinge bhinnam bhavati. Tari, let us sing and say. Kaha kauke prathama.
Kaha kauke prathama.
कं कौकान् द्वितीया
कं कौकान् द्वितीया
केन काभ्यां कैः तृतीया
केन काभ्यां कैः द्वितीया
तृतीया नौ लुक् हियर् फोर् नपुंसकलिङ्गे किं के कानि प्रथमा गायन्तु द्वितीया किं भवति समानेव किं के कानि द्वितीया केन काभ्यां कैः तृतीया सो तृतीया विभक्तिरूपं तथा पुल्लिङ्गे तथा नपुंसकलिङ्गे समानेव अस्ति खलु किरिसि नाट् आम् समानेव अस्ति सेम् बट् स्त्रीलिङ्गे किं भवति लेट् अस् डु सा के काः प्रथमा
काः प्रथमा
कां के काः द्वितीया
कां के काः द्वितीया
कया काभ्यां काभिः तृतीया
कया काभ्यां कैः द्वितीया
कया काभ्यां काभिः तृतीया Now let us look at the abhyasa. Okay. Atra balaha ayam balaha hastena. Tari hastaha hastena. Let us do that abhyasa a little bit, okay? Let us go to the vibhakti table. Pashatu. Hastaha pullinga shabda asti khalu? प्रातिपदिकं हस्त यथा रामशब्द राम प्रातिपदिकं राम तस्य प्रथमाविभक्तिरूपं किं रामः हस्त हस्तः बाल किं भवेत् प्रथमाविभक्तिरूपम् एकवचने
बालः
वृक्ष
वृक्षः
वृक्षः नर नरः जन जलः आम् अवगतं खलु सो प्रातिपदिकमे ग्राम बट् द प्रथम एकवचनं रूपम् इस् रामः नौ फार् वि आर् डूङ्ग् इट् फार् वाट् आर् वि डूङ्ग् इट् फार् वि आर् डूङ्ग् फार् दिस् हस्त खलु तर्हि हस्त प्रथमविभक्ति एकवचनं किं भवेत् हस्तः खलु द्विधरूपाणि हस्तः हस्तौ हस्ताः प्रथमा हस्तं हस्तौ हस्तान् द्वितीया हस्तेन हस्ताभ्यां हस्तैः तृतीया तृतीया हस्तैः तृतीया ते हस्तेन सो लेट् अस् लुक् एट् तृतीया विभक्ति करणं दट् मीन्स् वाट् इस् द साधनं वित् वाट् वाट् यु आर् डूयिङ्ग् द वर्क् दट् साधनम् इस् काल्ड् तृतीया विभक्ति रूपं तर्हि बालः हस्तेन वाट् इस् डूयिङ्ग् हस्तेन चन्द्रभावयति इस् कालिङ्ग् द मून् वित् हिस् हेण्ड् अ स्माल् चैल्ड् रैट् तर्हि अयं बालः वाक्यं वदन्तु सर्वे अयं बालः पठन्तु
हस्तेन
चन्द्रं तर्हि प्रश्नः अयं बालः हस्तेन कम् आह्वयति
चन्द्रेण
चन्द्रं खलु चन्द्रं कम् आह्वयति चन्द्रम् आह्वयति
चन्द्रम्
आह्वयति तर्हि चन्द्रः पुल्लिङ्गशब्दः तस्य द्वितीयविभक्ति एकवचनं किं चन्द्रं खलु वृक्षः वृक्षं हस्तः हस्तं चन्द्रः चन्द्रं खलु बट् नौ वी लुकिङ्ग् एट् अभ्यास वि हेव् आलरेडि फिनिश् द्वितीया लेट् अस् लुक् एट् द तृतीया नौ हस्तेन हस्तः हस्तेन सो वित् द हेण्ड् हि वाट् इस् द साधनं वाट् इस् द what is the sadhana what is the karanam with whose help he is doing this pointing out he is calling out with the help of his hand so hastena chandra mahavayati tari balaha kena chandra mahavayati patantu vakyam
balaha hastena chandram ahavayati
tari here what is the question केन उत्तरं हस्तेन केन हस्तेन कम् आह्वयति कम् आह्वयति चन्द्रम् आह्वयति खलु चन्द्रम् आह्वयति कं चन्द्रं केन हस्तेन अवगतम् अग्रे करेम अत्र कृतञ्जलि पठति वा वाक्यम्
अयं बालः शकटेन गृहं गच्छति
शकटं तर्हि शकटम् इस् वाट् टैप् आफ् पदम् ऐ शो यु द टेक्स्ट् बुक् अत्र अस्माकं पुस्तके पश्यन्तु षष्ठः पाठः खलु अस्माकं षष्ठः पाठः शकटं दृश्यते अत्र चित्रं शकटं तर्हि इदं शकटं वाक्यं किमस्ति इदं शकटं पठन्तु सर्वे तर्हि इदं शकटम् अस्ति तर्हि नपुंसकलिङ्गं खलु इदम् इमे इमानि लेट् अस् डू द एकवचनं द्विवचनं बहुवचनं इदं शकटं फर् टु शकटं इदर टु इमे शकटे बहुवचने इमानि
शकटानि
शकटं शकटे शकटानि तर्हि शकटं नपुंसकलिङ्गपदमस्ति खलु तर्हि नपुंसकलिङ्गपदस्य तृतीयविभक्तिः किं भवेत् यु टु सी देट् रैट् लेट् गो फार् वन् नपुंसकलिङ्गपदम् अत्र वनम् इति पदं दत्तमस्ति वनं वने वनानि लेट् अस् सिङ्ग् अकारन्त नपुंसकलिङ्गवन शब्द अकारान्त नपुंसकलिङ्गं नाम वन गायतु अकारान्तं नपुंसकलिङ्गम्
नपुंसकलिङ्गम्
वनं वने वनानि प्रथमा वनं वने वनानि द्वितीया वनेन वनाभ्यां वनैः तृतीया पुनः वनेन पुनः वनेन वनाभ्यां वनैः तृतीया Now, what is our akaranta padam? Idani asmakam akaranta padam asti, napunsak padam asti, shakatam. Pratipadikam shakata. Vanam shakata. Okay. For vanam, what is the pratipadika? Vana. For shakatam, it should be shakata. Padantu shakata. Pratipadikam shakata. Tari shakata iti pratipadikasya rupani pashyama. शकटं शकटे शकटानि प्रथमा गायन्तु पुनः शकटं शकटे शकटानि द्वितीया
शकटं शकटे शकटानि द्वितीया
इदानीं शकटेन शकटाभ्यां शकटैः शकटेन पुनः शकटेन शकटैः
तृतीया
सो नौ ही इस् गोयिङ्ग् दट् बाय् ओर् पर्सन् इस् गोयिङ्ग् बै वाट् करणं वाट् इस् अ साधनं साधनम् इस् शकटम् तर्हि शकटेन तृतीया विभक्ति एकवचनं लेट् अस् गो बेक् टु द चित्रं तर्हि अयं बालः शकटेन गृहं गच्छति पे अटेन्शन् टु द चित्रं अयं बालः प्रश्नः किं भवेत् केन वै केन किमर्थं केन शकटं किं कीदृशपदं नपुंसक खलु फोर् नपुंसकलिङ्गं तृतीया विभक्ति एकवचनं किम् अस्ति केन काभ्यां कैः तर्हि पुल्लिङ्गे फोर् पुल्लिङ्ग एण्ड् नपुंसकल इस् सेम् केन काभ्यां कैः केन काभ्यां कैः तर्हि बालः केन गच्छति शकटेन लेट् अस् गो बेक् टु द चित्रम् अयं बालः शकटेन गृहं गच्छति तर्हि गृहं गच्छति बालः गृहं गच्छति ओके तर्हि आल् आफ् यु प्लीस् रीड् द आन्सर् एण्ड् रीड् द क्वशन् आल्सो एव्रिबडि अयं बालः
अयं बालः शकटेन गृहं गच्छति अयं बालः केन गृहं गच्छति
उत्तमम् नौ लेट् अस् डू द द्विवचनम् इन्स्ट्रो आफ् बाल ऐ एम् टेकिङ्ग् नर नर इस् पुल्लिङ्ग अकारान्त पुल्लिङ्ग नाम नर नरः नरौ नराः प्रथमा खलु तर्हि नरः नरौ केन् यु सी टु पीपल् सिटिङ्ग् हियर् नरौ खलु तर्हि इमौ नरौ शकटेन दे गोयिङ्ग् वित् वन् कार्ड् शकटेन पठन्तु सर्वे
गृहं गच्छतः
किमर्थं गच्छतः वै गच्छतः नरौ गच्छतः खलु यदि नरः अस्ति तर्हि नरः गच्छति नरौ गच्छतः नराः किं भवेत् नराः गच्छन्ति खलु इमौ नरौ केन गृहं गच्छतः
नरौ केन गृहं गच्छतः
उत्तरम् इमौ नरौ
इमौ नरौ शकटेन गृहं गच्छति गच्छतः
केन शकटेन इदानीं बहुवचनं पश्यामः देर् आर् मेनि पीपल् गोयिङ्ग् नौ वित् वन् कार्ड् एकमेव शकटं तर्हि इदानीम् इन्स्टेड् टेकिङ्ग् हियर् फस्ट् वि टुक् बाल देन् वि टुक् नर खलु बालपुल्लिङ्ग नर अपि पुल्लिङ्ग इदानीं जनः जनौ जनाः जन इस् आल्सो पुल्लिङ्ग अकारान्त पुल्लिङ्ग नाम जन जनः जनौ जनाः प्रथमा अवगतम् तर्हि पठन्तु सर्वे आदौ वाक्यं पठन्तु अनन्तरं प्रश्नम्
इमे जनाः शकटेन गृहं गच्छन्ति इमे जनाः केन गृहं गच्छन्ति
अवगतं वा अवगतम् इमे जनाः केन गृहं गच्छन्ति इति प्रश्नः अग्रे सरेम नौ लेट् इट्स् द सेम् थिङ्ग् इन् डिफ्रेण्ट् फार्म्स् इदानीं पश्यतु एकः बालः अयं पुरुषः अस्ति अयं पुरुषः शकटेन गृहं गच्छति तर्हि अयं बालः पुरुषं पश्यति अयं बालः कं पश्यति अयं बालः पुरुषं वदन् सर्वे अयं
बालः
पुरुषं पश्यति प्रश्नः किं भवेत् अयं बालः कं पश्यति खलु सम्पूर्णं करोतु हा अलेख्य करोतु अयं बालः
अयं बालः कं पुरुषं पश्यति
उत्तमम् इदानीं लेट् अस् फस्ट् लुक् एट् वाट् द बाल पुरुष इस् सेयिङ्ग् वाट् इस् द पुरुषः सेयिङ्ग् अहं शकटेन गृहं गच्छामि पठन्तु सर्वे
अहं शकटेन गृहं गच्छामि
Now this boy who is looking, what is he saying? Tvam. He is seeing him, right? In front. So, Tvam shakatena gruham gachhasi. What is the kriyapadam? Tvam gachhasi. Vadatu? Sarve vadantu. Tvam.
Tvam shakatena gruham gachhasi.
Tari Tvam shakatena gruham gachhasi. This is a sentence. It's a vakyam. अस्य वाक्यस्य प्रश्नं किं भवेत् त्वं केन गृहं गच्छसि वाट् शुड् दो हि सीङ्ग् बट् वाट् केन् द क्वशन् त्वं प्लीस् से त्वं केन गृहं गच्छति उत्तमम् Now, instead of one, there are two people who are going. Avam shakatena gruham gachhavah. Pachantu sarve? Avam
shakatena gruham gachhavah.
Tari ayam balaha yaha pashyati sahakim vadati yuvam because it is you two, right? He is not going with the cart. You two. Tari yuvam गृहं गच्छतः उत्तमं किमर्थं गच्छतः किमर्थं द्विवचनं युवां खलु बिकास् इट् इस् युवां युवां शकटेन गृहं गच्छतः एकवचने किमासीत् एकवचने किमासीत् त्वं गच्छति खलु Okay, I want you to see once again. Okay, Pashatu, Madhyam Purushe, Tvam, Yuvam, Yuyam. Vadantu Puna?
Tvam,
Yuvam.
Yuvam,
Yuyam. Tari, Idan Kim Purmaha, Madhyam Purushe Vakya Ne Pathamaha. Tvam Gachasi, Sarve Vadantu, Tvam Gachasi.
Tvam Gachasi.
Yuvam Gachataha.
Yuvam.
यूयं गच्छथ त्वं तरसि पठन्तु त्वं तरसि
त्वं
तरसि मां तरथः खलु तर्हि अत्र त्वं गच्छसि अग्रिमचित्रे युवां गच्छथः मध्यमपुरुषस्य वाक्यानि तर्हि प्रश्नः किं भवेत् युवां गच्छथः बहुवचने इदानीं बहुवचने वयं दिस् सिम्पल् अस् सेयिङ्ग् पठन्तु वयं
वयं
शकटेन
गृहं गच्छामः
उत्तमम् अर्न बहु उत्तमं हा तर्हि यदा एते इमे पुरु इमे जनाः किं वदन्ति इमे जनाः किं वदन्ति वयं शकटेन गृहं गच्छामः तर्हि अयं बालः तदा किं वदति यूयं यु आल् रैट् हा यूयं
शकटेन गृहं गच्छथ गच्छथ
यूयं गच्छथ right because it is bahuvachanam I have just now shown you right see tvam yuvam yuyam yuyam is gachhatha correct bahuvachane atah gachhatha ha tari prashna kim bhavet yuyam kena gruham gachhatha sarve pachantu ni arna is saying agre कृताञ्जलि पठति वा कृताञ्जलि अहं फस्ट् सी वाट् वाट् द मेन् इस् सिङ्ग् द पर्सन् हू इस् गोयिङ्ग् हा अहं
नौकया नदीं तरामि
अहं नौकया नदीं तरामि नौका नौकया माला किं भवेत् मालया वदन्तु माला
मालया
बालया लता लतया सीता
सीतया
सो द कर्णं द मोड् द कार् द कर्णं द साधनं फार् गोयिङ्ग् अक्रास् द रिवर् इस् नौका देट् इस् इस् साधनं करेक्ट् तर्हि अहं नौकया नदीं तरामि लेट् अस् गो सी दिस् नौका इट् इस् अ स्त्रीलिङ्गपदम् वाट् इस् अ स्त्रीलिङ्गपदम् इन् अवर् विभक्ति टेबल्स् आकारान्तं स्त्रीलिङ्गं नाम सीता गायन्तु सीता सीते सीताः प्रथमा सीतां सीते सीताः द्वितीया सीतया सीताभ्यां सीताभिः तृतीया तर्हि सीता तस्य तृतीया एकवचनं किं भवेत् अभवत् सीतया हलो सीता किम् अभवत् सीतया लता लता लतया नौका
नौका
नौकया तर्हि नौकया नौकापदस्य तृतीया एकवचनमस्ति नौकया एण्ड् देट् इस् वाट् बि अ सीनियर् अहं नौकया नदीं तरामि हलो अवगतं वा तर्हि अयं बालः किं वदति त्वं नौकया पठन्तु सर्वे त्वं नौकया नदीं तरसि प्रश्नवाक्यं किं भवेत् त्वं कया नदीं तरसि पठन्तु कया त्वं वेर् दिस् कया हेस् कम् कया नदी कया नदीं तरति नौका नौका स्त्रीलिङ्गमस्ति खलु नौका स्त्रीलिङ्गमस्ति अतः प्रश्नवाचके तृतीया विभक्ति एकवचनं किं भवति कया खलु कया काभ्यां काभिः तृतीया तर्हि कया शकटं वट् वास् द क्वशन् केन केन गच्छति शकटेन खलु तृतीया एकवचनं इदानीं नौका तर्हि नौका प्रश्न पदस्य स्त्रीलिङ्गरूपमस्ति तस्य कृते प्रश्नः किं भवेत् कया नौका स्त्रीलिङ्ग अथ कया फस्ट् अण्डर्स्टाण्ड् द सन्दर्भ देन् वि केन् अण्डर्स्टाण्ड् द चित्रं तर्हि त्वं कया नदीं तरसि अहं नौकया नदी तरामि अवगतं वा इन् द फस्ट् अटेम्प्ट् एव्रिथिङ्ग् यु विल् वि विल् अण्डर्स्टाण्ड् फस्ट् अटेम्प्ट् इट्स् एव्रिथिङ्ग् इट्स् नाट् पासिबल् अगेन् अण्ड् अगेन् वारं वारम् अभ्यासेन तु कौन्तेय खलु वाट् डस् श्रीकृष्ण से टु अर्जुन हौ डु वि do the abhyasa how do I remember abhyasena repeating again and again abhyasena to kaunteya right so right now today we did it for the second time before this maybe 2-3 varga before we did it we'll do this next varga again we'll do it so slowly what we'll do we will remember it if you see this chitram aham naukaya nadim tarani what you'll say kum kaya nadim tarasi त्वं नौकया नदीं तरसि वा दिस् इस् हौ यु बि आस्किङ्ग् क्वशन्स् युर् सेल्फ् अवगतं वा ओके सो इट्स् टैम् आफ् शुड् बि स्टाप् फर् टुडे विरमामः शान्तिमन्त्रेण विरमामः अहं गायामि सर्वे अनुगायन्तु ॐ पूर्णमदः पूर्णमिदः पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः 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 हरिः ओम् राम् राम् इदानीं किं करोमि जस्ट् मिनिट् ऐ विल् स्टाप् द रेकार्डिङ्ग्